सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतं. सम्प्रति प्रातस्मरणीयानां मुनीनां स्मरणं, पश्चात् एव पाठः अनुवर्तते. भगिनी एकवारं श्लोकान् स्मारयतु.
येनाक्षरसमान्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्.
साधु, धन्यवादाः. अस्माकं प्रवर्तमानः विषयः अस्ति धातुविज्ञानं. धातुः एव क्रियापदस्य मूलरूपं. क्रियापदस्य इत्युक्ते तिङन्तपदस्य कृदन्तपदस्य मूलरूपं धातुः. धातुः एव प्रकृतिः. उपद्विसहस्रं धातवः पाणिनिना उपदिष्टाः. तेषाम् इत्युक्ते उपदिष्टानां धातूनां धातुसंज्ञा भुवादयो धातवः इति सूत्रेण दीयते. भुवादयो धातवः इति संज्ञासूत्रमस्ति. तेन सूत्रेण उपदिष्टानां शब्दानां धातुसंज्ञा भवति. व्याकरणशास्त्रे बहवः संज्ञाः सन्ति. तेषु अन्यतमा संज्ञा एव धातुसंज्ञा. धातुसंज्ञायाः प्रयोजनं प्रत्ययविधानम्. अष्टाध्याय्यां तृतीयाध्याये धातुभ्यः प्रत्ययाः विधीयन्ते. भुवादयो धातवः इति सूत्रस्य प्रसङ्गे गते वर्गे कश्चन प्रश्नः आगतः. भूवादयः इति एकं पदमस्ति, प्रथमान्तं पदं. धातवः तत्पदमपि प्रथमान्तं पदमेव. भूवा आदयः इत्युक्ते भूवा आदयः एते शब्दाः क्रियावाचिनि अर्थे एव धातुसंज्ञकाः भवन्ति. इत्युक्ते किम् इति अपि ज्ञातव्यम्. भू इति शब्दः अस्ति सूत्रे. भू इति शब्दः सत्तायाम् इति अर्थे एव तस्य शब्दस्य धातुसंज्ञा भवति, न तु पृथिवी इत्यस्मिन् अर्थे तस्य धातुसंज्ञा न भवति. इत्युक्ते भूशब्दस्य क्रियावाचिनि अर्थे एव तस्य धातुसंज्ञा भवति. भूशब्दस्य पृथिवी इति अर्थः अपि अस्ति, किन्तु तस्मिन् अर्थे भूशब्दस्य धातुसंज्ञा न भवति. द्वितीयं पदमस्ति वा इति. वा इति गतिगन्धनयोः इत्यस्मिन् अर्थे एव तस्य धातुसंज्ञा भवति, न तु अथवा. कदाचित् वयं वदामः वा इति पदस्य अथवा इति अर्थः अपि अस्ति. अथवा इत्यस्मिन् अर्थे वा शब्दस्य धातुसंज्ञा न भवति. केवलं गतिगन्धनयोः इत्यस्मिन् अर्थे एव वा शब्दस्य धातुसंज्ञा भवति. भूधातुः भुवादिगणीयप्रथमसदस्यः. वा धातुः अदादिगणीयसदस्यः अस्ति. क्रियावाचिनि अर्थे एव एतेषाम् उपद्विसहस्रं शब्दानां धातुसंज्ञा दीयते. भुवादयो धातवः इति सूत्रेण भवति. तत् सूत्रं संज्ञासूत्रं. धातुपाठे ये ये अर्थाः धातूनां प्रसङ्गे दीयन्ते ते केवलं निर्देशस्वरूपिणः इत्युक्ते केवलम् इण्डिकेशन्स् एव. सर्वे अर्थाः तेन न गृह्यन्ते इत्युक्ते सर्वे अर्थाः तत्र न दीयन्ते, केवलम् इण्डिकेशन् एव दीयते. पाणिनीयधातुपाठे औपदेशिकधातूनां रूपाणि अनुबन्धैः सह दृश्यन्ते. अपि च भुवादयो धातवः इत्यस्मिन् सूत्रे वा शब्दस्य इतोपि अन्यत् प्रयोजनमस्ति वा इति परिशीलनीयम्. मया किं पठितम् इत्युक्ते वा शब्दस्य ग्रहणेन मङ्गलाचरणं कृतम् अस्ति इति कुत्रचित् पठितम्. उत्तरं साधु वा न वा इति अहं न जानामि, किन्तु साधारणतया शास्त्रग्रन्थेषु त्रिषु स्थलेषु मङ्गलाचरणं कृतं दृश्यते. केषुचित् ग्रन्थेषु आदौ मङ्गलाचरणं क्रियते, कुत्रचित् मध्ये, कुत्रचित् अन्ते, एवं रीत्या मङ्गलाचरणं कृतमस्ति शास्त्रग्रन्थेषु. किन्तु अत्र भुवादयो धातवः इत्यस्मिन् सूत्रे वा इति शब्देन मध्ये मङ्गलाचरणं कृतमस्ति इति अपि मया पठितं. किन्तु वा इति धातुः इति तु सत्यं. वा धातुः अदादिगणीयधातुः गतिगन्धनयोः इत्यस्मिन् अर्थे तस्य प्रयोगः भवति चेदेव तस्य धातुसंज्ञा भवति, न तु अथवा इति अर्थे. अपि च गते वर्गे वयं कांश्चन धातून् वयं दृष्टवन्तः, अपि च प्रत्ययान् अपि दृष्टवन्तः. केचन धातवः अनुबन्धसहितधातवः, केचन धातवः अनुबन्धरहितधातवः. उदाहरणार्थं भूधातुः अनुबन्धरहितधातुः. भूधातौ अनुबन्धवर्णाः न सन्ति. एवमेव प्रत्ययेषु अपि केचन प्रत्ययाः अनुबन्धरहितप्रत्ययाः सन्ति. उदाहरणार्थम् आ इति प्रत्ययस्य उल्लेखः कृतः करपत्रे. आ इति निरनुबन्धप्रत्ययः, अनुबन्धरहितप्रत्ययः. उपदेशे एव, उपदेशे केचन धातवः निरनुबन्धाः, इत्युक्ते उपदेशावस्थायाम् एव केचन प्रत्ययाः निरनुबन्धप्रत्ययाः सन्ति. तत्र आ इति प्रत्ययस्य उल्लेखः अस्ति. आ इति प्रत्ययः समासान्तप्रत्ययः. समासान्तप्रत्ययानां विधानं तद्धिताधिकारे भवति. समासानां प्रसङ्गे ये जानन्ति ते किञ्चित् ज्ञातुं शक्नुवन्ति. समासान्तप्रत्ययः आ इति प्रत्ययः, तदवगन्तुम् उदाहरणं प्रेषितवती. द्वीपम् इति पदनिर्माणं कथं भवति इति परिशीलयामश्चेत्, द्वीपम् इति पदस्य निर्माणावसरे आ इति समासान्तप्रत्ययस्य प्रयोगः भवति. द्वीपम् इत्युक्ते द्वयोः गताः आपः यस्मिन् तत् इति विग्रहवाक्यमस्ति. समस्तपदम् इत्युक्ते द्वयोः सुबन्तयोः मेलनेन एव समस्तपदनिर्माणं भवति. अत्र सुबन्तपदद्वयं किम् इत्युक्ते द्वि इति प्रातिपदिकम्, अपि च अप् इति प्रातिपदिकं. भवन्तः सर्वे जानन्ति खलु अप् इति प्रातिपदिकात् आपः इति पदं सिद्ध्यति. आपः इत्युक्ते जलम्. आपः इति नित्य बहुवचनान्तशब्दः. तत्र द्वि योगः अप् योगः आ इति लेखनीयम्. द्वि इति एकं प्रातिपदिकम्, अप् इति अन्यत् प्रातिपदिकं. द्वयोः प्रातिपदिकयोः मेलनेन समस्तपदनिर्माणं भवति. द्वीपम् इति समस्तपदमस्ति इति कृत्वा तत्र आ इति समासान्तप्रत्ययस्य प्रयोगः भवति. तस्मिन् प्रत्यये अनुबन्धवर्णाः न सन्ति. उपदेशे एव सः प्रत्ययः अनुबन्धरहितप्रत्ययः. अपि च निष्काशनम् इति पदं पुनः पुनः शृणुमः. तत्पदं ल्युट् प्रत्ययान्तपदमस्ति. निस् उपसर्गपूर्वकः, कस् धातुतः अणिच् प्रत्ययस्य योजनेन निष्कासयति इति लट् रूपं सिद्ध्यति. किन्तु अत्र ल्युडन्तं पदमस्ति. निस् उपसर्गः, कस् इति लौकिकधातोः रूपं, निच् प्रत्ययस्य योजनेन तत्र ल्युट् अपि अस्ति. तेन निष्काशनम्, निष्काशनम् इत्युक्ते दूरीकरणं, बहिष्करणं, पृथक्करणं. निष्काशनम् इति पदस्य प्रसङ्गे धातुः कस् अस्ति. कस् धातुः भुवादिगणे अस्ति. कसति, कसतः, कसन्ति रूपाणि भुवादिगणीयधातोः रूपम् अस्ति. अपि च अस्माकं प्रकृतिविषयः तु इति संज्ञाप्रकरणम्. अस्मिन् करपत्रे उपरितन भागं वयं पठितवन्तः. इत् संज्ञाप्रकरणम् इत्यस्मात् आरभ्य अद्य वयं पठेम. विषयः तु किञ्चित् परिचितः एव, किन्तु व्याकरणे बहु किमपि ज्ञातव्यम् अस्ति. इत् संज्ञाप्रकरणम् इति अनुच्छेदात् आरभ्य अद्य वयं पठेम. तत्र उपदेशे जनुनासिक इत् इति सूत्रस्य प्रसङ्गे किञ्चित् लिखितमस्ति.
एकः संशयः, धातवः औपदेशिकधातवः, आतिदेशिकधातवः इति द्विविधमिति, सौत्रान्तिकधातवः इति अस्ति वा?
अस्ति इति मया दृष्टम्.
तद् सूत्रे विद्यमानः धातुः इत्यर्थः वा? एकत्र अहं पठितवान् सौत्रान्तिकधातवः इति, किन्तु प्रायः वयम् औपदेशिकधातवः अनन्तरम् आतिदेशिकधातवः इत्येव व्यवहारं कुर्मः. किन्तु सौत्रान्तिकधातवः इति चेत् कः अर्थः, कथम् इति ज्ञातु जिज्ञासया पृष्टवान्. आतिदेशिकधातवः सरन्तादिधातवः. अनन्तरम् उपदेशे यद् पाणिनिना यद् धातुपाठे पठितं तत्सर्वम् औपदेशिकधातवः इति, तत्र स्पष्टता अस्ति. किन्तु सौत्रान्तिकधातवः इति एकत्र उक्तं, तत् कथम् इति ज्ञातु. सौत्रान्तिकम् इति पदेन अहम् ऊहां कृतवान्. सूत्रेषु ये धातवः पठिताः ते इत्यर्थः वा इति ऊहा एव.
न जाने महोदय. आतिदेशिकाः निच् प्रत्ययस्य योजनेन, सन् प्रत्ययस्य योजनेन आतिदेशिकाः सिद्ध्यन्ति. किन्तु सौत्रान्तिक अपि ज्ञातव्यमेव. उपदेशे जननासिक इत् इति सूत्रमस्ति खलु. उपदेशे यः स्वरः अनुनासिकस्वरः अस्ति, अथवा उपदेशेषु यः अनुनासिक अचुवर्णः अस्ति, तस्य इत् संज्ञा भवति उपदेशे जननासिक इत् इति सूत्रेण. तत्र उपदेशः इति पदमस्ति. उपदेशः नाम किम् इति परिशीलयामश्चेत्, उपदेशः इत्युक्ते आद्योच्चारणम्. केषाम् आद्योच्चारणम्? आदिऋषिभिः कृतम् उच्चारणम् इति अर्थः. इत्युक्ते पाणिनिना, कात्यायनेन, पतञ्जलिना, यद् आद्योच्चारणं कृतमस्ति केषां प्रसङ्गे धातूनां प्रत्ययानाम् आदेशानाम् आगमानाम् एतेषां प्रसङ्गे यद् उच्चारणं कृतमस्ति आदौ यदुच्चारणं कृतमस्ति तदेव आद्योच्चारणं तस्यां दशायाम् एव औपदेशिकाः इति वक्तुं शक्यते. इत्युक्ते तस्यां दशायाम् एव तेषाम् उपदेशसंज्ञा दीयते. उदाहरणार्थं डुपचांश् इति औपदेशिकधातोः रूपम् अस्ति, किन्तु लौकिकधातुः पच् अस्ति. डुक्रोञ् इति औपदेशिकधातोः करणे इत्यस्मिन् अर्थे क्रु इति लौकिकधातुः अस्ति. णिङ् प्रापणे इत्यस्मिन् अर्थे णि धातुः अस्ति. णि धातोः रूपं नयति, क्रु धातोः रूपं करोति कुरुते, भवन्तः जानन्ति एव. अभिवादनस्तुत्योः इत्यस्मिन् अर्थे वद्यौ इति धातुः अस्ति. वद्यौ इति इदित् धातुः, तत्र इकारः अनुनासिकः अस्ति, किन्तु इदित् धातुः अस्ति इति कृत्वा तत्र मध्येऽनुमागमः भवति. लौकिकधातुः वन्द् भवति. तथा एव नन्द् धातोः रूपं नद्यौ अस्ति. आहत्य अत्र विषयः कः? वद्यौ, डुक्रोञ्, णिङ्, डुपचांश्, गम्लु रूपाणि औपदेशिकरूपाणि. इत्युक्ते उपदेशावस्थायां धातूनां रूपाणि एवं भवन्ति, किन्तु अत्र भूधातोः प्रसङ्गे अनुबन्धवर्णाः न सन्ति. अपि च प्रत्ययानां प्रसङ्गे ज्ञातुमिच्छामश्चेत् प्रत्ययानां प्रसङ्गे अपि औपदेशिकरूपं भिन्नमस्ति, लौकिकरूपं भिन्नमस्ति. एतद् अवगन्तं कानिचन उदाहरणानि. क्त्वा इति प्रत्ययः अस्ति, पठित्वा. औपदेशिकरूपं क्त्वा अस्ति, किन्तु लौकिकरूपं त्वा, त्वा एव श्रूयते. अनुबन्धलोपे सति तत्र त्वा एव अवशिष्यते. क्तवतु इति प्रत्ययः अस्ति उपदेशावस्थायां, किन्तु तस्य लौकिकरूपं तवत्. लौकिकप्रत्ययस्य रूपं तवत् अस्ति. पठितवान्, पठितवती इत्यादिषु क्तवतु प्रत्ययः अस्ति. अपि च आदेशाः सन्ति उपदेशे, केचन आदेशाः सन्ति. आदेशाः इत्युक्ते शप् इति विकरणप्रत्ययः आदिष्टः भवति भुवादिगणे इति वयं पठितवन्तः. शप् इति विकरणप्रत्ययः आदिष्टः भवति इत्युक्ते मूल आदेशस्य रूपं शप् अस्ति, किन्तु लौकिकरूपम् आ अस्ति. अन्येषां विकरणप्रत्ययानां प्रसङ्गे अपि एवमेव चिन्तनं करणीयं. श्ना इति विकरणप्रत्यये मूलप्रत्ययस्य रूपं श्ना अस्ति, किन्तु अनुबन्धलोपे सति प्रत्ययस्य लौकिकरूपं न अस्ति. तथा एव श्यन् प्रत्ययानां प्रसङ्गे एवं रीत्या चिन्तनीयं. किमर्थं वदन्ती अस्मि? उपदेशे धातूनां प्रसङ्गे, प्रत्ययानां प्रसङ्गे, आदेशानां प्रसङ्गे, आगमानां प्रसङ्गे, एतेषां प्रसङ्गे उपदेशावस्थायां तेषां रूपं भिन्नं. किमर्थं चेत् तत्र अनुबन्धवर्णाः सन्ति. अनुबन्धलोपे सति लौकिकरूपं भिन्नम्. आगमानां प्रसङ्गे किं ज्ञातव्यम्? एकम् उदाहरणं वदामि. भूतकालार्थे लङ्लकारस्य प्रयोगः भवति. लङ्लकारे, लुङ्लकारे, लृङ्लकारे भूतकालार्थे एतेषां प्रयोगः भवति. एतेषु लकारेषु अट् आगमः भवति इति अस्माभिः पठितं. लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अट् आगमः भवति. आगमः अट् अस्ति. अट् इति आगमस्य औपदेशिकरूपं, किन्तु लौकिकरूपं केवलम् आ एव. तत्र टकारस्य इति संज्ञा भवति. एवमेव नुम् आगमः भवति कुत्रचित्. नन्द् धातोः प्रसङ्गे इदित् धातुः अस्ति इति कारणतः इदितोनुम् धातोः इति सूत्रेण नुम् आगमः भवति. नुम् इति कथनेन मकारस्य इति संज्ञा भवति. आहत्य तत्र आगमस्य मूलरूपं नुम्, किन्तु नकारः तत्र आयाति. आहत्य उपदेशेषु रूपाणि भिन्नानि, किन्तु लौकिकरूपाणि भिन्नानि. अत्र गम्लु धातुं पश्यामश्चेत् औपदेशिकरूपं गम्लु अस्ति, लौकिकरूपं गम् अस्ति. लौकिकरूपे अनुनासिकलुकारः न दृश्यते. तत्र अनुनासिकलुकारः अस्ति इति कथं जानीमः? तत्र केवलम् अनुमानं कृत्वा अथवा ऊहां कृत्वा एव वक्तुं शक्नुमः. यः अनुनासिकलुकारः उपदेशावस्थायाम् अस्ति सः लुकारः लोके न दृश्यते. किं ज्ञातुं शक्नुमः? तत्र सः लुकारः प्रायशः अनुनासिकलुकारः स्यात्, तदर्थम् उपदेशजनुनासिके इति सूत्रेण तस्य अपगमनम् अभवत् इति किञ्चित् अनुमानं कृत्वा एव वक्तुं शक्नुमः. तस्यां दशायाम् एवं रीत्या एव चिन्तनं करणीयम्. अपि च गम्लु इति कथनेन तत्र लृ इति न वक्तव्यम्. लु इति केवलं स्वरवर्णः, तत्र ऋकारस्य उच्चारणं मा भवेत्, केवलं गम्लु एव वक्तव्यम्। अनुनासिक अचुवर्णस्य इति संज्ञा केवलम् एकेन विशिष्टसूत्रेण एव भवति, तत्सूत्रमेव उपदेशे जनुनासिक इत्, उपदेशे अनुनासिक अच् वर्णस्य इति संज्ञा इति स्मर्तव्यं तत्र। अत्र अन्यत् उदाहरणं वदामि। अस् इति धातुः अस्ति, अदादिगणे अस्ति, अस् धातोः रूपम् अस्ति, अस्ति इति लट्लकाररूपम् अस्ति, धातुः अस् अस्ति, तत्र आ इति वर्णस्य इति संज्ञा किमर्थं न भवति इति चिन्तयितुं शक्नुमः। किमर्थं न भवति इत्युक्ते तत्र यः अकारः दृश्यते सः अकारः अनुनासिकः नास्ति, सः अकारः अननुनासिकः इति कृत्वा सः अकारः यथावत् तिष्ठति। अपि च इतोपि उपदेशेषु कः वर्णः अनुनासिकः अस्ति, कः वर्णः अनुनासिकः अस्ति इति कथं ज्ञायते, कथं ज्ञातुं शक्नुमः इत्युक्ते केवलम् एकः एव मार्गः अस्ति, भाष्यं पठनीयं, भाष्यज्ञानमस्ति चेदेव अवगन्तुं शक्नुमः, अथवा व्याख्यानं दृष्ट्वा एव कः वर्णः उपदेशेषु, कः स्वरवर्णः अनुनासिकः, कः स्वरवर्णः अननुनासिकः इत्यस्य ज्ञानं केवलं व्याख्यानेन एव ज्ञातुं शक्नुमः। इदानीं भवन्तः सर्वे इति संज्ञाप्रकरणं पश्यन्तु, पुनरवलोकनं कृत्वा अभ्यासं कुर्मः।
भगिनी, तद् उपदेशे इति पदस्य माहेश्वरसूत्रं न उक्तम्। उपदेशे उपदेशः इति चेत् धातौ प्रत्ययः अनन्तरम् आगमः आदेशः इति तत्र उक्तमस्ति, किन्तु माहेश्वरसूत्रमपि योजनीयं किल?
इत्युक्ते प्रत्याहाराः
न न अयोनल्लिक् माहेश्वरसूत्रं सूत्रम् इति सूत्राणि इति न उक्तम्। आदौ तदेव पठितवन्तः किल, माहेश्वरसूत्राणि पठितवन्तः, तदपि योजनीयं किल, अथवा कुत्रापि अन्तर्गतं भवति वा?
तदपि योजनीयमेव। इति संज्ञाप्रकरणे अष्टसूत्राणि सन्ति, अनुवृत्तयः अपि द्वभागे दत्ताः सन्ति। अनुवृत्तिं विना सूत्रं निरर्थकं भवति इति तु सत्यम्, अनुवृत्तिं विना सूत्रं निरर्थकं भवति। इदानीम् एकवारं पुनरवलोकयाम इति संज्ञाप्रकरणम् इति भागं पश्यन्तु। सुन्दर् महोदय, भवान् पठतु।
चत्वारि सूत्राणि उपदेश अवस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु। एकम् उपदेशजननासिक इत् 1.3.2 उपदेशे धातौ प्रत्यये आदेशे आगमे अच् वर्णः अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति। उपदेशे सप्तम्यन्तं पदम् अच् प्रथमान्तं पदम्, अनुनासिकः प्रथमान्तम्, इत् प्रथमान्तम्, अनेकपदमिदं सूत्रम्। सूत्रं स्वयं सम्पूर्णम्, उपदेशे अच् अनुनासिकः इत् इत्यस्ति।
महोदय, अधोभागे अनुवृत्तिः अपि लिखितमस्ति, अस्य सूत्रस्य अनुवृत्तिं पठतु।
अनुवृत्तिः एतेषाम् अनुवृत्तिक्रमः सुलभः, उपदेशे अजननासिक इत् इत्यस्मिन् न कापि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते।
प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वदतु।
प्रथमसूत्रम् एतद् वदति, यदि उपदेश अवस्थायां औपदेशिकधातुं यदि अनुनासिकः अच्वर्णः अन्ते यः अच्वर्णः अस्ति तद्वर्णः अनुनासिकः भवति चेत् तस्य इत्संज्ञा भवति इति सूत्रं वदति। सूत्रं त्रिपदम् इदं सूत्रमस्ति। उपदेशे इति सप्तमी विभक्तौ अस्ति, अच् इति प्रथमाविभक्तौ अस्ति, एवम् अच् अनुनासिकः इति प्रथमाविभक्तौ, इत् अपि प्रथमाविभक्तौ एव। लोपः भवति, तस्य लोपः इति अग्रिमं सूत्रं किल, अत्र न भवति किल
इदं सूत्रं संज्ञासूत्रमेव उपदेशे इति विषयसप्तमी सप्तम्यन्तं पदमस्ति किन्तु अत्र विषयसप्तमी उपदेशेषु इति अर्थः अस्ति संज्ञासूत्रम् इदं सूत्रं पूर्वं चर्चितमेव सूत्रम् अवगन्तुं कानिचन उदाहरणानि एकवारम् अवलोकयाम डुपचांश् इत्यस्मिन् अस्य सूत्रस्य प्रसक्तिः अस्ति वा
डुपचांश् इति सूत्रे आम् अत्र सूत्रस्य प्रसक्तिः अस्ति चंश् इति अन्तिम पदस्य उपरि अनुनासिकम् अस्ति किल तत् कारणेन पच् अनुनासिकस्य इत्संज्ञा भूत्वा लोपः भवति पच् एव अवशिष्यते पचंश् अन्तिमवर्णः इत्संज्ञा भूत्वा लोपः भवति तत् कारणेन उपदेशे अजनुनासिक इति सूत्रस्य प्रसक्तिः अस्ति एव
डुपचंश् तस्मिन् शब्दे बहवः अचुवर्णाः सन्ति इति कारणतः किं वदामः चकारोत्तरवर्ती अकारः चकारोत्तरवर्ती यः अकारः अस्ति सः अकारः अनुनासिक अकारः अस्ति इति कारणतः तस्य अनुनासिक अकारस्य इत् संज्ञा दीयते अनेन सूत्रेण गम्लु इत्यस्मिन् प्रसङ्गे वदतु
गम्लु इति प्रसङ्गे गम्लु लु लु इति वाक्य लु गम्लुम् इति अनुनासिकः अस्ति अनुनासिक वर्णः अस्ति तत् कारणेन गम् लु 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 इति पदं लु इति वर्णः इत् संज्ञा भवति उपदेशे अजनुनासिक इति सूत्रेण तत् कारणेन गम् एव अवशिष्यते लु इत् संज्ञा भूत्वा लोपः भवति
धातूनां प्रसङ्गे किञ्चित् चर्चितम् अपि च सुप्रत्ययाः सन्ति सु औजसमक्ष सु इति प्रथमाविभक्ति एकवचनप्रत्ययः अस्ति सु इति प्रथमाविभक्ति एकवचनप्रत्यये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति विवृणोतु इदानीं पर्यन्तं वयं धातूनां प्रसङ्गे चर्चां कृतवन्तः इत्युक्ते उपदेशजनुनासिके इति सूत्रस्य प्रसक्तिः धातूनां प्रसङ्गे कथं भवति इति चर्चितमेव इदानीं प्रत्ययानां प्रसङ्गे प्रातिपदिकात् सुप्रत्ययानां योजनेन सुबन्तपदं सिद्ध्यति तत्र एकविंशति सुप्रत्ययाः सन्ति तेषु प्रथमः प्रथमाविभक्ति एकवचनप्रत्ययः सु अस्ति वदतु
तत्रापि सु इति वर्णः सु इति इस् उ इति सुम् इति अनुनासिकः वर्णः अस्ति वा उम् इति अनुनासिकवर्णः अस्ति तत् कारणेन उपदेशे अजनुनासिक इति सूत्रेण उम् इति वर्णः अच् वर्णस्य उपरि अच् उ वर्णस्य उपरि अनुनासिकः अस्ति तत् कारणेन उम् इत् संज्ञा उम् इति वर्णः इत् संज्ञा भूत्वा लोपः भवति सु इस् एव अवशिष्यते राम इति रामस् इति शब्दं भवति रामस् एवं सन्धिसूत्रेण रामः इति विसर्गरूपं भवति
यथा भवता उक्तं सु इति प्रथमाविभक्ति एकवचनप्रत्ययः अस्ति कदापि स् इति न वदामः सकारः इति कथने तत्र स्वरवर्णः नास्ति इति अर्थः सकारः सकारात् परम् अनुनासिक उकारः अस्ति सः अनुनासिक उकारः उपदेशजनुनासिक इत् इति सूत्रेण इत् संज्ञकः भूत्वा तस्य लोपः इति सूत्रेण अपगच्छति केवलं सकारः एव तिष्ठति राम इति प्रातिपदिकं स्वीकृत्य तत्र सु इति प्रत्ययं योजनात् परं वर्णमेलनेन रामस् भवति परन्तु तत्र अन्यानि कार्याणि भवन्ति अन्यानि कार्याणि इत्युक्ते ऋत्वविसर्गयोः कारणेन तत्र रामः इति प्रथमाविभक्ति एकवचनरूपं सिद्ध्यति इतोपि उपदेशजनुनासिक इति सूत्रस्य प्रसङ्गे किं ज्ञातव्यं
प्रत्ययस्य प्रसङ्गे वा धातोः प्रसङ्गे वा
सूत्रस्य प्रसङ्गे
सूत्रस्य प्रसङ्गे सूत्रस्य प्रसङ्गे एतत् सूत्रम् अनुवृत्ति सूत्रम् एव स्वयमेव सम्पूर्णं अनुवृत्ति पृथक् अनुवृत्तिसूत्रं अनुवृत्तेः आवश्यकः नास्ति. एवं उपदेशे त्रीणि पदानि एव सन्ति, सप्तम्यन्तं प्रथमान्तं प्रथमान्तम् एव.
सारांशः कः अत्र?
सारांशः एतदस्ति, उपदेश उपदेश औपदेशिक धातोः यदि यदि अन्ते अन्ते अच् अच्वर्णः अनुनासिक अच्वर्णः अस्ति चेत् तत् तत् अनुनासिक अच्वर्णः ईत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. एवं औपदेशिक धातुरेव अवशिष्यते तदेव.
एतत् सूत्रं न केवलं धातुषु, अन्येषु उपदेशेषु अपि अत्र आवरणे दत्तमस्ति. धातौ, प्रत्यये, आदेशे, आगमे, एतेषु चतुर्षु रूपेषु उपदेशावस्थायाम् एव.
भगिनि, तत्र महोदयेन तु साधु एव उक्तं, किन्तु अन्ते तु नास्ति आवश्यकम् इत्युक्ते कुत्रापि अस्ति चेत् अनुनासिक अच्छति चेत् औपदेशिकरूपे तस्य लोपः न इति मन्ये भगिनि.
उत्तम, अन्ते इति नास्ति, उपदेशे कुत्रचित् अपि भवितुमर्हति, अनुनासिक अचुवर्णः कुत्रापि भवितुमर्हति.
किञ्चित् उदाहरणमस्ति, उदाहरणमस्ति वा? अहम् अन्ते एव
यथा डुपचष् एव तत्र
शकारः अन्ते अस्ति डुपचांश् इत्यस्मिन्, चकारोत्तरवर्ती अकारः. साधु. गीताञ्जलि भगिनि, द्वितीयं सूत्रं पठतु.
हलन्त्यं प्रथम अध्याये तृतीयभागे तृतीयसूत्रम्. उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. हल् प्रथमान्तम्, अन्त्यं प्रथमान्तम्. द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम्. उपदेशे अन्त्यं हल् इत्, सहितसूत्रम् उपदेशे अन्त्यं हल् इत् इति दत्तं मम करपत्रे भगिनि.
अस्मिन् प्रसङ्गे वदतु.
अस्तु अस्तु, हलन्त्यम् इति द्वितीयसूत्रम् अस्ति इत् प्रकरणे, इत्संज्ञाप्रकरणे. तत्र हलन्त्यम् इति सूत्रेण अन्तिम यत् हल् वर्णः अस्ति औपदेशिक रूपे तत् इत्संज्ञा स्वीकरोति इति दत्तम् तदेव. यथा यथा डुपचष् अपि अत्र दर्शयति, अन्ते तु हल् शकारवर्ण अस्ति, तत् शकार हलन्त्यं सूत्रेण इत्संज्ञा भूत्वा अपगच्छति इति. डुपचष् समान उदाहरण यदि वयं स्वीकुर्मः, अन्ते तु शकार अस्ति, शकार हल् वर्ण अस्ति, हलन्त्यं सूत्रेण शकार इत्संज्ञा भूत्वा तस्य लोपः इति.
उत्तम. अत्र हलन्त्यम् इति सूत्रमस्ति, तत्र आवरणे तिस्रः सङ्ख्याः दत्ताः, एकं त्रीणि त्रीणि इति सङ्ख्याः दत्ताः. प्रथमसङ्ख्यायाः महत्त्वं किम् अत्र?
प्रथमसङ्ख्या इत्युक्ते अष्टाध्यायाम् अष्टादश अध्यायाः सन्ति.
अष्टाध्यायाः सन्ति,
अष्टाध्यायाः सन्ति. अहं किं वदामि भगिनि, क्षम्यता.
अत्र आवरणे सङ्ख्या अस्ति.
प्रथमसङ्ख्या तु प्रथम अध्यायाम् इति अध्याये इति मन्ये, इत्युक्ते प्रथमसङ्ख्या अध्यायस्य
अध्यायं सूचयति.
अध्यायं सूचयति. द्वितीयसङ्ख्या पादः, पादः कः इत्युक्ते प्रति अध्याये पादचतुर्थ सन्ति.
पादचतुष्टयमस्ति, नो चेत् चत्वारः पादाः सन्ति.
चत्वारः पादाः सन्ति, पादचतुष्टयं सन्ति.
चतुष्टयम् इति कथनेन अस्ति इति वक्तव्यमस्ति.
पादचतुष्टयम् अस्ति, अत्र तु तृतीयपादस्य दर्शयति इति अत्र हलन्त्यं सूत्रेण. अपि च तृतीयसङ्ख्या तु सूत्रस्य सङ्ख्या एव, इत्युक्ते प्रतिपादे कानिचन सूत्राणि सन्ति. अत्र तु तृतीयसूत्रं, तृतीयपादे तृतीयसूत्रं, तदेव.
उत्तमं. शप् इति विकरणप्रत्ययः अस्ति खलु. शप् विकरणप्रत्ययः भुवादिगणे धातुतिङ्प्रत्ययोः मध्ये आयाति. शप् प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः अस्ति वा?
आं भगिनि, शप् इति औपदेशिकरूपं जानीमः, मूलरूपं जानीमः. अन्ते तु हल् वर्ण पकार अस्ति. पकार इति संज्ञा हलन्त्यं सूत्रेण भवति, तेन तस्य लोपः भवति.
अणिच् इति सनादिप्रत्ययः अस्ति. अणिच् प्रत्ययस्य योजनेन पठ् धातुतः पाठी इति नूतनधातोः निर्माणं भवति. तत्र णिच् प्रत्यये अपि अस्य प्रसक्तिः अस्ति खलु?
आं भगिनि, पठयोग णिच् अस्ति. णिच् अन्तिम भागः तु चकार अस्ति. चकार अपि हल् वर्ण अस्ति. तत् इति संज्ञा भूत्वा लोपः भवति. किन्तु अन्य अपि णकार अपि अपगच्छति, किन्तु हलन्त्यं सूत्रेण तु न.
उत्तमं. नद्यो इति धातुः अथवा वद्यो इति धातुः इदित् धातुः अस्ति. इदित् धातुः अस्ति इति कृत्वा मध्ये नुम् आगमः भवति, नुम् आगमः भवति. नुम् आगमस्य प्रसङ्गे अस्य प्रसक्तिः अस्ति वा?
आं भगिनि,
एको सन्देहः. इदित् इदित् इति किम् अस्ति?
इदित् इति किमस्ति भगिनि, वदतु. इदित् इत्युक्ते किम्?
इदित् इत्युक्ते इत् इत् द्विवारम् आयाति. इत् इत्युक्ते संज्ञा, संज्ञा दर्शयति, इत्युक्ते संज्ञार्थ
इकारः अस्ति.
इत् संज्ञक इकारः अस्ति. यस्मिन् धातौ इत् संज्ञक इकारः अस्ति, सः धातुः इदित् धातुः. तत्र भगिनी किम् उक्तवती? इत् इत् यस्य सः इदित् इति उक्तवती, विग्रहवाक्यम् उक्तवती गीताञ्जली भगिनी. ज्ञातव्यः विषयः कः? यस्मिन् धातौ इत् संज्ञक इकारः, अनुनासिके इकारः अस्ति, सः धातुः इदित् धातुः इति वक्तव्यमस्ति. तादृशधातुः कः? परिचितधातुः. वद्यम् इति धातुः अस्ति, सः धातुः इदित्. तत्र अनुनासिक इकारः अस्ति, सः अनुनासिक इकारः उपदेशजनुनासिके इति सूत्रेण अपगच्छति, किन्तु तत्र अन्यत् कार्यमपि अस्ति, मध्ये नुमागमः भवति. इदानीं नुमागमः इति उक्तवती खलु, तत्रापि मकारः इति संज्ञकः अस्ति. मकारस्य इति संज्ञा हलन्त्यं सूत्रेण भवति. गीताञ्जलि भगिनी, गम्लू धातुः अस्ति, गम्लू धातौ अनुनासिकलुकारस्य इति संज्ञा उपदेशजनुनासिकीति इति सूत्रेण भवति. तत्र गम् इति लौकिकरूपं दृश्यते, अन्ते स्थितस्य मकारस्य इति संज्ञा किमर्थं न भवति हलन्त्यं सूत्रेण?
इत्युक्ते औपदेशिक अवस्थायाम् एव हलन्त्यं कार्यं करोति. इत्युक्ते गम् रुत् अन्तिम ऋकार एव अस्ति अनुनासिक, तत् अपगच्छति इति संज्ञा भूत्वा तदनन्तरं मकार आयाति. तत्तु औपदेशिकरूपं नास्ति अधुना.
उपदेशावस्था नास्ति इदानीम्.
उपदेशावस्था नास्ति गम् इति.
आदौ अनुनासिकलुकारस्य इति संज्ञा उपदेशजनुनासिकीति इति सूत्रेण भवति, तदा गम् इति रूपं सिद्ध्यति. तत्र अन्ते यः मकारः श्रूयते, सः मकारः न अपगच्छति, तस्य अपगमनं न भवति हलन्त्यं सूत्रेण. किमर्थं चेत् तत्र इदानीम् उपदेशावस्था नास्ति, सः धातुः उपदेशावस्थायाम् अधुना नास्ति, उपदेशे एव अन्तिमहल्वर्णस्य इत् संज्ञा भवतु इति हलन्त्यं सूत्रेण उच्यते. साधु भगिनी, साधु उक्तवती. इदानीं नरेश महोदय, भवान् पठतु तृतीयं सूत्रं.
तृतीयं सूत्रम् अस्ति न विभक्तौ तुस्मा विभक्त्यां तवर्गीय वर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रम् तुश्च सकार च मश्च तेषाम् इतरेतरद्वन्द्वः तुस्माः न अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः अत्र तु दत्तमस्ति विभक्त्यां तुस्मः तस्य इत्संज्ञा न भवति तुस्माः तत्र तु तवर्ग अस्ति सकारः अस्ति मकारः अस्ति तस्य इत्संज्ञा विभक्त्यां न भवति
विभक्तिसंज्ञकप्रत्ययेषु तवर्गीयव्यञ्जनानि सकारः अथवा मकारः अस्ति चेत् तेषाम् इत्संज्ञा न भवति अत्र विभक्तिश्च इति सूत्रं दत्तमस्ति तस्य प्रसक्तिः अत्र किमर्थमस्ति
विभक्तिश्च सूत्रस्य सूत्रेण तत्र प्रत्ययाः सन्ति सुप्रत्ययः एकविंशतिः सुप्रत्ययाः सन्ति तिङ्प्रत्ययाः अष्टादश तिङ्प्रत्ययाः सन्ति तस्य इत्संज्ञा न भवति तस्य विभक्ति तत्र तवर्गीय सकारः मकारः इत्संज्ञा न भवति
उत्तम एकवारम् उदाहरणानि अवलोकयामः एकविंशति सुप्रत्ययाः सन्ति जस् इति प्रथमा विभक्ति बहुवचनप्रत्ययः अस्ति द्वितीया विभक्ति बहुवचनप्रत्ययः शस् अस्ति सु औ जस् अम् औट् शस् इति सुप्रत्ययाः सन्ति जस् प्रत्ययस्य प्रसङ्गे वदतु
जस् अस्ति तत्र हलन्त्यं सूत्रेण सकारस्य इत्संज्ञा प्रसक्ति अस्ति परन्तु सः विभक्त्याम् अस्ति अतः तस्य इत्संज्ञा न भवति जस् अवशिष्यते अहं चिन्तयामि
तत्र जकारस्य इत्संज्ञा भवति एव तत्र सकारः यथावत् तिष्ठति सकारः अन्तिमहल्वर्णः अन्तिमहल्वर्णः अस्ति चेदपि हलन्त्यम् इति सूत्रं बाधित्वा न विभक्तौ तु स्मः इति सूत्रेण अत्र कार्यं निषिध्यते सकारस्य इति संज्ञा न भवति अपि च द्वितीया विभक्ति एकवचनप्रत्ययः अस्ति तत्र रामम् इति कथनेन अम् इति प्रत्ययः अस्ति तस्मिन् प्रसङ्गे वदतु
तत्र अम् अस्ति विभक्ति अस्ति विभक्त्यां प्रत्ययः अस्ति अतः मकारः इत्संज्ञा न भवति अकारः
तिष्ठति
अकारः तिष्ठति मकारः अपि तिष्ठति रामं द्वितीय विभक्ति एकवचनं भवति रामम्
उत्तमं सानुबन्धप्रत्ययः अम् अस्ति निरनुबन्धप्रत्ययः अपि अम् एव अपि च द्वितीयविभक्ति बहुवचनप्रत्ययः अस्ति शस् तत्र तालव्यशकारः अस्ति शस् प्रत्यये वदतु
शस् द्वितीयविभक्ति बहुवचनं शस् तत्र सकारस्य इत्संज्ञा तु न भवति न विभक्तौ तु स्माः
लषक्वतधिते इति सूत्रेण शकारस्य इति संज्ञा भवति इति अन्या वार्ता. किन्तु द्वितीयाविभक्ति बहुवचनप्रत्यये शस् प्रत्यये अपि न विभक्तौ तु स्माः इति सूत्रेण सकारः यथावत् तिष्ठति. तत्र निरनुबन्धप्रत्ययः तु अस् अस्ति. द्वितीयाविभक्ति बहुवचनप्रत्ययः. एवं रीत्या सुप्रत्ययेषु अन्ते स्थितस्य सकारस्य मकारस्य लोपः न भवति हलन्त्यं सूत्रेण. किमर्थं चेत् हलन्त्यम् इत्यस्य अपवादसूत्रम् एव न विभक्तौ तु स्माः अथवा बाधकसूत्रम् अस्ति. एतावत्पर्यन्तं सुप्रत्ययानां प्रसङ्गे चिन्तनं कृतवन्तः. न केवलं सुप्रत्ययाः, तिङ् प्रत्ययाः अपि विभक्तिसंज्ञकाः एव इति उक्तम् अस्ति. अत्र तिङ् प्रत्ययानां प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. तिङ् प्रत्ययेषु प्रथमपुरुष द्विवचनप्रत्ययः अस्ति. तस्मिन् प्रसङ्गे वदतु.
तस् अस्ति चेत् तत्र सकारः न विभक्तौ तु स्माः इति संज्ञा न भवति. तकारस्य अपि इति संज्ञा न भवति. तस् अवशिष्यते.
तस् इति द्विवचनप्रत्ययः अस्ति. तत्र सकारस्य इति संज्ञा न भवति. न विभक्तौ तु स्माः इति सूत्रेण तस्य निषेधः भवति. इति संज्ञानिषेधः भवति. हलन्त्यं सूत्रस्य बाधकसूत्रमस्ति न विभक्तौ तु स्मः. अन्यानि उदाहरणानि अपि अस्माभिः परिशीलनीयानि. साधु महोदय, चन्द्रमौली महोदय, भवान् वक्तुमिच्छति वा? तुमन् इति प्रत्ययः अस्ति खलु. पठितुं, संस्कृतं पठितुं गच्छामि. तत्र तुमुन् इति प्रत्ययः अस्ति. पठितुम् इत्यस्मिन् तुमुन् प्रत्ययः अस्ति. तुमुन् प्रत्ययस्य अन्ते नकारः अस्ति. अत्र स्थितिः का किञ्चित् वदतु.
तुमुन् इत्यत्र हलन्त्यम् इति सूत्रेण एतत्तु विभक्त्यां न आगच्छति इति मन्ये. अतः हलन्त्यम् इति सूत्रेण तत्र नकारस्य इत्संज्ञा भूत्वा तत् अपगच्छति. तुम् एव अवशिष्यते.
उत्तमम्. अयं प्रत्ययः विभक्तिसंज्ञकप्रत्ययः नास्ति. तुमिन् इति प्रत्ययः कृत् प्रत्ययः. इत्युक्ते प्रत्ययः तिङ् नास्ति, शित् नास्ति, अपि च सुप्रत्ययः अपि नास्ति, विकरणप्रत्ययः अपि नास्ति. तुमन् प्रत्ययः कृत् प्रत्ययः. तत्र एकं सूत्रमस्ति, क्रुदतिङ् धातुभ्यः विधीयमानः अयं प्रत्ययः तुमुन् अस्ति. तत्र नकारस्य इति संज्ञा भवति. किमर्थं चेत् अयं प्रत्ययः विभक्तिसंज्ञकः नास्ति इति कृत्वा हलन्त्यं सूत्रेण अन्ते स्थितस्य नकारस्य इति संज्ञा भवति.
इतर धातुभ्यः विहिताः प्रत्ययाः इति भवती उक्तवती किल, तस्य पूर्णार्थः किम् इति कृपया वदतु. धातुभ्यः विहिताः प्रत्ययाः इति किम् एक्साक्ट् मीनिङ्ग्?
प्रत्ययानां विधानं धातुतः भवति, अपि च प्रातिपदिकेभ्यः अपि प्रत्ययानां विधानं भवति. प्रातिपदिकात् प्रत्ययस्य योजनेन तद्धितप्रत्ययान्तपदानि सिद्ध्यन्ति. यथा बुद्धिमान्, गुणवान् इत्यादीनि तद्धितप्रत्ययान्तपदानि सन्ति. इत्युक्ते तत्र मूलरूपम् अथवा प्रकृतिः प्रातिपदिकमस्ति. प्रातिपदिकात् सुप्रत्ययस्य योजनेन सुबन्तपदानि सिद्ध्यन्ति. सुबन्तपदेषु तद्धितान्तपदेषु प्रकृतिः प्रातिपदिकमस्ति. किन्तु धातुभ्यः विधीयमानाः प्रत्ययाः केचन सन्ति. अत्र मूलरूपम् अथवा प्रकृतिः धातुः अस्ति. धातुतः केचन प्रत्ययाः विधीयन्ते. के प्रत्ययाः धातुभ्यः विहिताः भवन्ति? धातुतः विकरणप्रत्ययानां विधानं भवति. धातुतः तिङ् प्रत्ययानां विधानं भवति. धातुतः कृत् प्रत्ययानां विधानं भवति. विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति. तिङ् प्रत्ययस्य योजनेन तिङन्तपदं सिद्ध्यति. यथा पठति, गच्छति. कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. पठितवान्, गतवान्. धातुभ्यः विधीयमानः प्रत्ययः, यः प्रत्ययः तिङ् नास्ति, सः एव कृत्. तदवगन्तुमेव तत्र कृदतिङ् इति सूत्रमस्ति. इत्युक्ते तिङ् भिन्नाः कृत् प्रत्ययाः, धातुभ्यः विधीयमानाः प्रत्ययाः तिङ् प्रत्ययाः सन्ति, कृत् प्रत्ययाः अपि सन्ति. अयं तुमुन् प्रत्ययः धातुतः विधीयमानः प्रत्ययः. अत्र प्रकृतिः धातुः अस्ति. धातुभ्यः विधीयमानः प्रत्ययाः तिङ् प्रत्ययाः अपि सन्ति, किन्तु ये तिङ् भिन्नाः सन्ति, ये तिङ्गः न सन्ति, ते एव कृत् प्रत्ययाः. तुमुन् इति प्रत्ययः कृत् प्रत्ययः. विषयः कः? नाविभक्तौ तु स्मः इति सूत्रस्य प्रसङ्गे अयं तुमुन् प्रत्ययः विभक्तिसंज्ञकः नास्ति. एकविंशतिसुप्रत्ययेषु अन्यतमः नास्ति, अष्टादश तिङ् प्रत्ययेषु अन्यतमः नास्ति. अयं तुमुन् प्रत्ययः भिन्नः इति कृत्वा नाविभक्तौ तु स्मः इति सूत्रस्य प्रसक्तिः नास्ति. तदर्थम् अन्ते यः नकारः अस्ति तस्य नकारस्य इत् संज्ञा हलन्त्यं सूत्रेण भवति एव. चन्द्रमौली महोदय, भवान् वदतु, रुधादिगणे श्नम् इति विकरणप्रत्ययः धातोः मध्ये एव आगत्य उपविशति इति अस्माभिः पठितं. श्नम् विकरणप्रत्ययस्य प्रसङ्गे मकारस्य का गतिः?
श्नम् इति तत्तु विभक्तिसंज्ञा नास्ति, अतः तत्र षकारः मकारः, मकारः हलन्त्यम् इत्यनेन सूत्रेण अपगच्छति. लशक्वतद्यते इत्यनेन षकारस्य अपि इत्संज्ञा भूत्वा लोपः जातः इति मन्ये महोदय. न एव अवशिष्यते. तत्र तत्तु विभक्तिसंज्ञा नास्ति. तत् मकारः यः अस्ति, श्नम् इति प्रत्ययः, तत्तु विभक्तिसंज्ञकः नास्ति. अतः न विभक्तौ तु स्माः इति सूत्रस्य प्रसक्तिः एव नास्ति अत्र इति कारणतः हलन्त्यम् इति सूत्रः आगत्य मकारस्य इत्संज्ञा भवति, तदनन्तरं तस्य लोपः भवति.
उत्तमं, तदेव. एकम् अन्यत् उदाहरणमपि अहं दृष्टवती, तस्मिन् प्रसङ्गे अहं वक्तुमिच्छामि. लुट् लकारः नाम्ना एकः लकारः अस्ति. लुट् लकारः अनद्यतन भविष्यत्कालरूपं बोधयितुम् लुट् इति लकारः अस्ति. लुट् लकारे तास् इति एकः प्रत्ययः आयाति. तास् इति प्रत्ययः गणविकरणप्रत्ययः नास्ति. गणविकरणप्रत्ययः इत्युक्ते श्नम् श्न शप् इत्यादयः गणविकरणप्रत्ययः, किन्तु अयं तास् प्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः. भविष्यति इति पदं भविष्यत्कालरूपं खलु, लृट् लकाररूपं. तत्र स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति तत्र पदनिर्माणप्रसङ्गे. तथा एव लुट् लकारप्रसङ्गे तास् इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. स्यतासील् रु लुटोः इति सूत्रेण तास् इति प्रत्ययः आयाति. सः प्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः, विभक्तिसंज्ञकप्रत्ययः नास्ति इति कृत्वा तास् इत्यस्मिन् सकारस्य इत् संज्ञा हलन्त्यं सूत्रेण भवति. किमर्थं चेत् सः प्रत्ययः विभक्तिसंज्ञकः नास्ति. वयं सर्वे जानीमः एव इयसुन् इति एकः प्रत्ययः अस्ति. इयसुन् प्रत्ययः तद्धितप्रत्ययः, विभक्तिसंज्ञकः नास्ति. इयसुन् इति कथनेन अन्ते यः नकारः अस्ति तस्य नकारस्य इत् संज्ञा हलन्त्यं सूत्रेण भवति. किमर्थं चेत् सः प्रत्ययः विभक्तिसंज्ञकः नास्ति. इयसुन् प्रत्ययान्तरूपाणि वयं सर्वे जानीमः एव. बलीयान्, बलीयसि, बलीयः इत्यादीनि पदानि इयसुन् प्रत्ययान्तपदानि. सूत्रं बलीयः इति वक्तव्यमस्ति. बलीयः इति पदं नपुंसकलिङ्गे इयसुन् प्रत्ययान्तपदम् अस्ति. इयसुन् इति प्रत्ययस्य नाम. अन्ते स्थितस्य नकारस्य इत् संज्ञा भवति हलन्त्यं सूत्रेण. नकारस्य इत् संज्ञा किमर्थं भवति इत्युक्ते सः दन्त्यनकारः तवर्गीयव्यञ्जनं. तथा अस्ति खलु, तवर्गीय अन्तिमव्यञ्जनम् अस्ति चेदपि प्रत्ययः विभक्तिसंज्ञकः नास्ति इति कृत्वा अत्र न विभक्तौ तु स्माः सूत्रस्य प्रसक्तिः नास्ति. केवलं हलन्त्यं सूत्रेण अन्ते स्थितस्य दन्त्यनकारस्य इत् संज्ञा भवति एव. साधु महोदय.
भगिनी, मनस् शब्दः अस्ति किल, मनस् तत्र सुप्रत्ययं सु इति योजयामः, सु तत्रैव सकारस्य ऋत्वम् अनन्तरं विसर्गः किल, किन्तु सकारस्य लोपः कथं मनस् शब्दे? प्रातिपदिकं मनस् इति अस्ति, तत्र सकारस्य इत्सम्यकत्वं भवति वा?
नपुंसकलिङ्गपदं सुबन्तप्रक्रियायाः प्रसङ्गे दृष्ट्वा एव वक्तुं शक्नोमि महोदय.
तत्र मनः सकारस्य इत्संज्ञा तु न भवति, सकारः विसर्गः भवति, मनः प्रथम विभक्ति एकवचनं मनः अस्ति.
प्रातिपदिकं तु मनस् किल, सुप् योजयामः.
आम्,
सुप् एव तत्र विसर्गत्वं, किन्तु मनस् प्रातिपदिके सकारः अस्ति किल, तस्य लोपः कथम्?
तथा शिरश्शब्दः अपि अस्ति, शिरश्शब्दः अपि अस्ति. हा, तदपि शिरसि शिरांसि इति भवति खलु.
तस्य सकारस्य लोपः न भवति.
सर्वे चिन्तयन्तु मनः इति पदस्य रूपं कथं साधनीयम्.
न विभक्तौ तु स्मः इति अस्ति किल, तत्र सकारः अस्ति किल, तेन कारणेन तत्र सकारस्य करणं. विभक्तौ इति चेत् सुप्रत्ययं तिङ्प्रत्ययं द्वयमपि आगच्छति,
सकारस्य लोपः न भवति. ससजुषोरुः इति सूत्रेण तस्य विसर्गः भवति मनः इति रूपं, तदेव मनः इति रूपं सिद्ध्यति प्रथमाविभक्तौ.
कक्षायाः अनन्तरं समीचीनतया चिन्तयित्वा सोपानानि लिखामि. तत्र कीदृशानि कार्याणि भवन्ति सोपानानि कानि? मनः इति नपुंसकलिङ्गशब्दः अस्ति, सकारान्तशब्दः अस्ति, तत्र प्रथमाविभक्ति एकवचने सुप्रत्ययस्य योजनेन कीदृशानि कार्याणि भवन्ति इति एकवारं चिन्तयन्तु. तस्मिन् प्रसङ्गे इदानीं चर्चा मास्तु. इदानीम् आदिर्नेटुडवः इति सूत्रस्य प्रसङ्गे नरसिंहहेग्डे महोदय, भवान् अत्र किं लिखितमस्ति पठतु.
आदिर्नेटुडवः प्रथमाध्यायस्य तृतीयपादस्य पञ्चमसूत्रम्. उपदेशस्य आदौ णि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. णि टु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. णि च टु च डु च तेषाम् इतरेतर द्वन्द्वः. निटुडु बहुवचने निटुडवः गुरुशब्दः इव. आदि प्रथमान्तं, निटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्. आदि इति इत् इति च बहुत्वे एकवचनम्. अनुवृत्तिसहितसूत्रम्. उपदेशे धातोः आदयः निटुडवः इतः. यदि धातो आदौ नि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. णि टु डु एते निबन्धाः धातुषु एव भवन्ति, प्रत्ययेषु न भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते एव अस्ति. णि च टु च डु डु च तेषाम् इतरेतर द्वन्द्वः भवति. णि टु डु बहुवचने निटुडवः गुरुशब्दः एव, गुरवः इव. आदि प्रथमान्तं, निटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्. सूत्रे पदद्वयम् अस्ति. आदिः इति आदिः इति इत् इति च बहुत्वे एकवचनम्. अनुवृत्तिसहितसूत्रमस्ति. उपदेशे उपदेशे अजुनासिक इत् इत्यनेन इत इत् एवम् उपदेश अनुवृत्तिः भवति. धातौ आदयः निटुडव इत पूर्णसूत्रमस्ति.
आदिर्निटुडवः इत्यस्मिन् सूत्रे धातोः इति पदं न लिखितमस्ति. अत्र धातोः इति पदम् अनुवृत्तिसहितसूत्रे दत्तमस्ति. धातोः इति पदं सूत्रे नास्ति. इदं सूत्रं केवलं धातूनां प्रसङ्गे एव कार्यं करोति इति लिखितमस्ति. किमर्थं तथा उक्तं?
प्रत्यये किमपि प्रत्यये ये वर्णाः न सन्ति. णि टु डु केवलं धातूनां कृते एव धातु एव वर्णाः सन्ति, प्रत्यये नास्ति ये वर्णाः. णि टु डु
उत्तमं. तादृशप्रत्ययः एव नास्ति यस्मिन् प्रत्यये उपदेशे आदौ णि टु डु इत्येषु अन्यतमः वर्णसमूहः अथवा वर्णसमुदायः एव नास्ति. साधारणतया टु इति कथनेन टवर्गीयव्यञ्जनानि इति वदामः, किन्तु अत्र तादृश अर्थः अस्ति वा?
अत्र नास्ति.
अत्र किम् अवगन्तव्यम्?
अत्र केवलं वर्णसमूहः इति अवगन्तव्यं, टकारे उकारस्य. किमर्थम् इत्युक्ते यदि टक् टु टवर्ग इति अहं नयामः चेत् तत्र डुकारस्य पुनः आवश्यकता नास्ति, अतः टवर्ग इति अहं
टु इति कथनेन टवर्गीयव्यञ्जनानि इति अर्थः अत्र अस्ति चेत् पुनः डु इति कथनस्य आवश्यकता नास्ति इति एकः विषयः. अग्रिमे सूत्रे लशक्वतधिते इति सूत्रे अथवा तुस्माः इत्यत्रापि तु इति कथनेन टवर्गीयव्यञ्जनानि इति अर्थः, कु इति कथनेन कवर्गीयव्यञ्जनानि इति अर्थः अस्ति. किन्तु अस्य सूत्रस्य प्रसङ्गे टु इति कथनेन केवलं टकारः अपि च उकारः, डु इति कथनेन डकारः अपि च उकारः, केवलं वर्णसमूहः एव, तस्य वर्गीय सर्वाणि व्यञ्जनानि इति अर्थः अत्र नास्ति.
टु इति तत्र यः उकारः अस्ति तद् इत्संज्ञत्वं न प्राप्नोति, उदित् नास्ति इति कारणेन टवर्गः इति न स्वीकरणीयः किल. यत्र उदित् अस्ति तत्रैव वर्गः भवति, वर्गीयव्यञ्जनानि भवन्ति. उकारः तु इत्संज्ञक इत्संज्ञकः नास्ति, सः टु इत्येव स्वीकरणीयम्.
अस्माभिः कथं ज्ञायते यतः एतत् टु टवर्गीयव्यञ्जनं व्यञ्जनान् सूचयति वा अथवा सिर्फ ट और डु उ सिद्ध्यति सूचयति वा इति अस्माभिः कथं ज्ञायते अस्माभिः
व्याख्यानं दृष्ट्वा
एव. ओ
किन्तु अत्र तर्कः कः इति परिशीलयामश्चेत् टु इति कथनेन सर्वाणि टवर्गीयव्यञ्जनानि इति अर्थः अस्ति चेत् पुनः अत्र डु इति कथनस्य आवश्यकता नास्ति. यथा महोदयेन उक्तं टु तत्र अनुनासिक उकारः नास्ति, उदित् नास्ति टु इति, केवलम् अननुनासिक उकारः. वर्णद्वयं किं तत्र, मूर्धन्यटकारः अपि च अननुनासिक उकारः अस्ति. टु इति केवलं वर्णसमूहः एव इति अवगन्तुं शक्नुमः. सूत्रं किं वदति, धातूनां प्रसङ्गे एव अस्य प्रसक्तिः अस्ति. तदर्थं कांश्चन धातून् पश्यामः. टु नद्यौ इति धातुः अस्ति, वदतु महोदय. टु नद्यौ
आदिमटुकारस्य संज्ञा भवति,
डुक्रुञ् वदतु.
तत्रापि आदिमडुकारस्य संज्ञा भवति,
डुपचांश्.
अत्रापि डुकारस्य संज्ञा भवति आदिम.
मिद् इति लौकिकधातोः रूपं, किन्तु तस्य उपदेशावस्थायां तस्य रूपम् अणिमिदाम् अस्ति.
तत्रापि भवति, मिद् एव अवशिष्यते.
नन्द् इति धातुः लौकिकधातुः, किन्तु उपदेशावस्थायां तस्य रूपं टु नद्यौ अस्ति. तत्र उपदेशावस्थायां धातोः आदौ टु इति वर्णसमूहः अस्ति इति कृत्वा अनेन सूत्रेण इति संज्ञा भवति. डुक्रुञ् इत्यस्मिन् अपि डु इति वर्णसमुदायः धातोः आदौ अस्ति उपदेशावस्थायां, तदर्थं तस्यापि इति संज्ञा भवति. तथा एव डुपचांश् इत्यस्मिन् डु इति वर्णसमूहः धातोः आदौ अस्ति इति कारणतः आदिर्निटुडवः इति सूत्रेण तस्य इति संज्ञा भूत्वा अपगच्छति. एतदवगन्तुं धातूनाम् उदाहरणानि परिशीलनीयानि. अग्रे एकं वार्तिकं दत्तमस्ति. साधु महोदय, साधु उक्तवान्. दर्शनभगिनी भवती पठतु वार्तिकस्य प्रसङ्गे, नो चेत् निर्मलभगिनी भवती पठतु. वार्तिकं दत्तमस्ति, कात्यायनेन लिखितम्.
ईर् इति संज्ञा वाच्या नेति इति सूत्रस्य अन्तर्गतम् एकं वार्तिकं धातोः ईर् इत्यस्य शब्दसमुदायस्य इत् संज्ञा भवति. चिदिर् इत्यादिषु धातुषु ईर् इत्संज्ञा भवति. भिधिर् भिधिर् भिद् चिदिर् चिद् दृशिर् दृश् णिजिर् णिच् णिज् युजिर् युज् इशुचिर् शुच् धेयं यत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. अस्तु, ईर् इत्संज्ञा वाच्या नेति इति एकः वार्तिकम् अस्ति कात्यायनस्य. तस्य वार्तिकस्य वार्तिकेन यदि मूलरूपं धातोः उपदेश अवस्थायां विधिर् इति रूपम् अस्ति, धातोः रूपम् अस्ति चेत् तस्य ईर् इति अन्तिमभागे ईर् इति श्रूयते, तस्य लोपः, तस्य इत्संज्ञा भूत्वा लोपः भवति. भिदिर् धातोः भिद् एव तिष्ठति, इर् अपगच्छति, चिदिर् चिद् दृशिर् दृश् णिजिर् णिज् एवमेव भवति इति उच्यते.
ईषिचिर् अस्ति किल भगिनि, तत्र ईकारस्य लोपः उपदेशे अजनुनासिके यत् कारणेन वा?
आं
महोदय, तत्र चिह्नं न स्थापितम् अनुनासिकत्वम् इति बोधयितुम्.
आम्,
इर् इति शब्दसमूहे इकारः यद्यपि अनुनासिकः अस्ति किन्तु वार्तिकेन आधारेण अनुनासिक इकारस्य भिन्नतया इत्संज्ञा न करणीयम्. इर् इति शब्दसमुदायस्य इत्संज्ञा करणीयम्.
सम्यक्, तद् अवगतवान्, किन्तु धातोः आरम्भे ई इति अस्ति किल,
तत्र चिह्नं न दृश्यते इति.
चिह्नं न दृश्यते किन्तु लोपः अस्ति.
आं महोदय, अस्ति इत्युक्ते अनुनासिक अचुवर्णः कुत्रापि भवेत् तत्र उपदेशजनुनासिकी इति सूत्रेण तस्य लोपः भवति एव इति कृत्वा अत्र अनुनासिकचिह्नं लेखनीयं. केचन धातवः दत्ताः, तेषु इर् इति वर्णसमुदायः अस्ति. इर् इत्यस्मिन् रेफस्य इत्संज्ञाकरणं हलन्त्यं सूत्रेण, अनुनासिकीकारस्य इत्संज्ञाकरणम् उपदेशजन्नासिके इति सूत्रेण भवति चेत् पृथक्तया भिन्नरीत्या इत्संज्ञां कुर्मः चेत् किं भवति स्म अत्र? अञ्जलि भगिनी वदतु.
धातु इदित् अस्ति कृत्वा नुवागमस्य प्रसक्ति अस्ति, तद् तत् आधारेण छिद् योगः इर् यदि स्वीकृत्य तदा साधुरूपना निष्पद्यते.
उत्तमम्. अत्र अनुनासिक इकारस्य भिन्नरीत्या इत्युक्ते उपदेशजनुनासिकीत् इति सूत्रेण अनुनासिक इकारस्य इत्संज्ञां पृथक्तया कुर्मः चेत् तत्र इदित् धातोः सम्भवः अस्ति, तादृशी स्थितिः मा भवेत् इत्युक्ते तत्र अशुद्धं रूपं सिध्यति इति कृत्वा तत्र मिलित्वा एव द्वयोः वर्णयोः अथवा इर् इति शब्दसमुदायस्य इति संज्ञा करणीया. अपि च अन्यत्र मया किञ्चित् पठितम् अस्मिन् प्रसङ्गे, इर् इत्यस्य इत् संज्ञायाः महत्त्वमस्ति. इर् इत् संज्ञाम् आधारीकृत्य एव कानिचन विशिष्टानि कार्याणि भवितुमर्हन्ति, तदर्थम् इर् इति शब्दसमुदायस्य एव इत् संज्ञा करणीया, न तु पृथक्तया इति मया पठितम्. तत्र एकं सूत्रं दत्तमस्ति, इरितो वा तेन सूत्रेण कानिचन विशिष्टानि कार्याणि भवन्ति एतेषां धातूनां प्रसङ्गे, तदर्थमेव पृथक्तया द्वयोः वर्णयोः इति संज्ञा न करणीया, मिलित्वा एव करणीयम्. एवं रीत्या कुर्मः चेदेव इर् इति संज्ञाम् आधारीकृत्य अन्यानि विशिष्टकार्याणि भवितुमर्हन्ति इति पठितं मया. अपि च अत्र इदित् निर्माणस्य सम्भावना भवति इति कृत्वा तादृशरीत्या न करणीयम्.
तर्हि एतत् वार्तिकम् अस्ति किल, अतः एतानि पदानि तु अग्रे उपयुक्तानि पदानि वा, अग्रे आगतानि पदानि इति कारणेन वार्तिके उक्तं वा? कारणं पाणिनिः न उक्तवान् किल.
आम्,
एतेषां पदानां निष्पत्तिः अथवा आगमनं प्रयोगः अग्रे स्यात्, पाणिनिकालात् परं स्यात्.
सूत्राणि पाणिनिना रचितानि, सूत्रेषु सम्पूर्णतया यद् न उक्तमस्ति तस्मिन् प्रसङ्गे तस्य पूरणं करोति वार्तिकम्. अपि च अनुक्तानां विषये अपि वार्तिकेन उच्यते, दुरुक्तानां प्रसङ्गे अपि वार्तिकेन ज्ञातुं शक्नुमः. पाणिनिः सूत्राणि रचितवान् तस्मिन् प्रसङ्गे, वार्तिकानि कात्यायनेन रचितानि. वार्तिकानां प्राधान्यं किम् इत्युक्ते उक्तानां विषयाणां प्रसङ्गे, अनुक्तानां विषयाणां प्रसङ्गे अपि अवगमनार्थं विषयपूरणं करोति वार्तिकम्.
यदि यदि इदित् इदित् भवति तत्रापि किं क्लेशः?
इदित् भवति चेत् नुमागमः भवति.
परन्तु तत् औपदेशिक नास्ति किल तत्कारणेन पृथक् करणीयश्चेदपि साधु एव भवति किल तद् औपदेशिक रूपं नास्ति किल एक एक इत्संज्ञा कृतवान् हलन्त्यम् इति रूपेण रेफस्य इत्संज्ञा कृतं तदनन्तरं इदित् भवति परन्तु इदित् औपदेशिक नास्ति नास्ति किल तत्कारणेन इदित् न स्वीकर्तव्यं किल तदेव मम सन्देहः
अहं प्रयत्न करोमि भगिनि तत्र अहं मन्ये तत्र इर् समुदाय स्वीकृत्य यथा भगिनी उक्तवती किञ्चित् कानिचन विशिष्टकार्याणि इति सन्ति एव व्याकरणे यदा वयं पृथक् पृथक्तया इत् भूत्वा लोप करणीयं तत् तेन तु यथा इत्तो वा तु व्यर्थं जाता तत्तु मा भवेत् इति वयं जानीमः
कस्य वर्णस्य इति संज्ञा पूर्वं भवति कस्य वर्णस्य इति संज्ञा परं भवति तादृशचिन्तनम् अत्र नास्ति एकस्मिन् एव काले योग्यानाम् इति संज्ञकवर्णानाम् इति संज्ञा भवितुमर्हति एकस्मिन् एव काले इति तत्र विषयः अनुनासिकीकारस्य इति संज्ञा पृथक्तया भवति चेत् नुमागमस्य आपत्तिः अस्ति इति कृत्वा मिलित्वा एव इति संज्ञा करणीया इति मम चिन्तनमस्ति
मम सन्देहः अस्ति इदित् भूत्वा अपि तस्य प्रसक्तिः न भवति किल यतः तत् औपदेशिक अवस्थायां नास्ति तत्कारणेन तदेव मम सन्देहः इदित् अगत् भवति तदपि क्लेशः किं
रेफस्य इत्संज्ञायाः अनन्तरमपि तत्र उपदेशावस्था अस्ति एव अनुनासिक इकारः उपदेशावस्थायाम् अस्ति रेफस्य इत्संज्ञाकरणात् परमपि तत्र उपदेशावस्था अस्ति इति एव वक्तव्यम्
अस्ति वा
अस्ति अत्र रामचन्द्रन् महोदय भवान् वदतु महोदयस्य प्रश्नस्य उत्तरं किं भवितुमर्हति
वर्णसमुदायः एव स्वीकरणीयः भवति अनन्तरं प्रायः तत्र हलन्त्यमिति सूत्रेण अन्तिमम् अनन्तरम् उपदेशे अजनुनासिक इत् इति सामान्य अन्यत्र भवति वा न वा न जानामि किन्तु अस्मिन् सन्दर्भे विशिष्टवार्तिकस्य का उद्देशः कः इति चेत् एतादृशप्रयोगे एवं भवति अतः एवमेव स्वीकरणीयम् अतः इर् इत्येव स्वीकरणीयं शब्द वर्णसमुदायः एव स्वीकरणीयः इति चिन्तनं स्यात् एवं भाति मम मनसि
अस्तु रेफस्य इत्संज्ञायाः परमपि तत्र उपदेशावस्था अस्ति इति एव मन्तव्यं
तदेव मम सन्देहः तत्रैव मम सन्देहः रेफस्य अनन्तरं इत्संज्ञा अनन्तरमपि तस्य प्रसक्तिः अस्ति वा मम सन्देहः तदेव मम चिन्तनम् एतदस्ति रेफस्य निष्कासनानन्तरं तत् औपदेशिक नास्ति तत् आदिदेशिक भवति
न भवतः चिन्तनं किम् इत्युक्ते आदौ रेफस्य इत्संज्ञाकरणं भवति पश्चात् एव इकारस्य इत्संज्ञा भवति इति तादृशचिन्तनं मास्तु योग्यानाम् अथवा अर्हानाम् इत्संज्ञकवर्णानां निष्कासनम् एकस्मिन् काले भवितुमर्हति तत्र रेफस्य निष्कासनानन्तरम् अपि ईसुचिर् अथवा युजिर् इत्यादिषु धातुषु उपदेशावस्था अस्ति एव किन्तु द्वयोः वर्णयोः इत्संज्ञा पृथक्तया न करणीया इति एव निष्कर्षः एतावत्पर्यन्तं चत्वारि सूत्राणि परिशीलितानि किन्तु अत्र समयः जातः अतः इतोपि किञ्चित् पठामः वा नो चेत् पठामः त्रीणि सूत्राणि दत्तानि लक्ष्मी भगिनी भवती पठतु
त्रीणि सूत्राणि शः प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् अनुवृत्ति
अधोभागे अस्ति
अनुवृत्ति शः प्रत्ययस्य इत्यस्मिन् आदि निटुडुडवः इत्यस्मात् आदिः उपदेशे जनुनासिक इत् इत्यस्याम् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम् प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति इति वाक्यम्
मुख्य अंशः कः प्रत्ययस्य आदौ शकारः अस्ति चेदेव अनेन सूत्रेण इत्संज्ञा भवति प्रत्ययस्य अन्ते अस्ति चेत्
न भवति इति अहं मन्ये
प्रत्ययस्य आदौ शकारः अस्ति चेदेव अनेन सूत्रेण इत्संज्ञा भवति एतदवगन्तुं कानिचन उदाहरणानि एकवारम् अवलोकयाम तद्धितप्रत्ययाः सन्ति तेषु ष्यञ् इति एकः प्रत्ययः अस्ति ष्यञ् इति कथनेन प्रत्ययस्य आदौ मूर्धन्यशकारः अस्ति तस्य इत्संज्ञा अनेन सूत्रेण भवति ष्यञ् प्रत्ययान्तपदानि बहूनि पदानि वयं शृणुमः दार्ढ्यं जाड्यं नैर्मल्यम् इत्यादिषु पदेषु ष्यञ् इति प्रत्ययः अस्ति दृढस्य भावः दार्ढ्यं जडस्य भावः जाड्यं निर्मलस्य भावः नैर्मल्यम् इत्यादीनि पदानि सन्ति ष्यञ् इति प्रत्यये अपि शकारः अपगच्छति तथा एव श्वन् इति एकः प्रत्ययः अस्ति श्वन् तत्रापि शकारः आदौ अस्ति श्वन् प्रत्ययान्तरूपमेव नर्तकः नृत् इति एकः धातुः अस्ति नृत् धातुतः श्वन् इति प्रत्ययस्य योजनेन नर्तकः इति पुंलिङ्गपदं सिद्ध्यति नर्तकी इति स्त्रीलिङ्गपदं सिद्ध्यति अपि च नेत्रम् इति पदं वयं जानीमः नेत्रम् इत्यस्मिन् पदे स्ट्रन् इति एकः प्रत्ययः अस्ति स्ट्रन् प्रत्ययान्तरूपमेव नेत्रं तत्र आदौ शकारः अस्ति प्रत्ययस्य आदौ यः शकारः अस्ति तस्य इत् संज्ञा अनेन सूत्रेण भवति नी धातुं जानीमः नीङ् प्रापणे इत्यस्मिन् अर्थे नी धातोः रूपमेव नयति खलु नी धातुतः स्ट्रन् इति प्रत्ययस्य योजनेन नेत्रम् इति पदं सिद्ध्यति अपि च शाकन् इति एकः प्रत्ययः अस्ति अधोभागे अभ्यासे अपि अयं प्रत्ययः दत्तः शाकन् उदाहरणानि लुण्टाकः जल्पाकः भिक्षाकः वराकः इत्यादीनि पदानि शाकन् प्रत्ययान्तरूपाणि मूलरूपं शाकन् अस्ति अनुबन्धलोपे सति तस्य रूपम् आक इति तत्र अवशिष्यते नकारस्य इत्संज्ञा भवति आदिमशकारस्य इत्संज्ञा अपि भवति इति कृत्वा अन्तिमं रूपम् आक इति जल्प इति प्रातिपदिकात् शाकन् प्रत्ययस्य योजनेन जल्पाकः इति पुंलिङ्गे भवति स्त्रीलिङ्गे जल्पाकी भवति तथा एव लुण्टाकः इत्युक्ते चोरः जल्पाकः इत्युक्ते वाचालः
लुण्टकः इत्यपि रूपम् अस्ति किल लुण्टकः इति रूपं नास्ति वा चोरस्य कुत्रापि पठितवान् तदेव
शाकन् प्रत्ययस्य योजनेन यत् पदं साधितं तत् पदं तु लुण्टाकः तत्र आक इति रूपम् अवशिष्यते प्रत्ययस्य भागः अपि
लुण्टनं करोति इति लुण्टकः
अस्तु
तदेव अहमपि उक्तवान्
तत्र नुवल् अस्ति वा महोदय शाकन् प्रत्ययः षित् प्रत्ययः इत्युक्ते शकारः इत् यस्य सः इति षित् प्रत्ययानां प्रसङ्गे एव इदं सूत्रं कार्यं करोति साधु भगिनी अञ्जलि भगिनी भवती पठतु अग्रिमं सूत्रं चुटु सूत्रस्य प्रसङ्गे
उपदेशावस्थायां प्रत्ययस्य आदौ यदा च वर्गीय टवर्गीयवर्णाः सन्ति चेत् तस्य इत्संज्ञा भवति चुटु इति सूत्रं प्रथमे अध्याये तृतीये पादे सप्तमं सूत्र अस्ति सः यः सूत्रं केवलं प्रत्ययेषु आदेशेषु प्रत्ययेषु कार्यं करोति अतः उपदेशावस्था
अवस्थायां प्रत्ययस्य आदौ वर्ण यदा च वर्गीय अथवा ट वर्गीय सन्ति चेत् तस्य इत्संज्ञा चुटु इति सूत्रेण भवति।
गुरुशब्दवत् द्विवचने पदं दत्तमस्ति खलु?
आम्।
गुरुः गुरु तत्र द्विवचनरूपमस्ति, तथा एव अत्र चुटु इति द्विवचनरूपं दत्तमस्ति। प्रत्ययस्य आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः तेषु अन्यतमवर्णः अस्ति चेत् तस्य इत्संज्ञा चुटु सूत्रेण भवति। चु इत्यस्य अर्थः कः?
च वर्गीय व्यञ्जनानि च छ झ झ य।
टु इत्युक्ते?
टु इत्युक्ते ट वर्गीय व्यञ्जनानि ट ठ ड ढ ण।
चु इति कथनेन सर्वाणि चवर्गीयव्यञ्जनानि इति अर्थः, चकारः उकारः वर्णसमूहः इति अर्थः अत्र नास्ति खलु? एतद् अवगन्तुं कानिचन उदाहरणानि। सु औ जस्, जस् इति प्रथमाविभक्ति बहुवचनप्रत्ययः अस्ति, तस्मिन् प्रसङ्गे वदतु अस्य प्रसक्तिः अस्ति वा जस् इति प्रत्ययस्य निरनुबन्धरूपं साधयितुम्?
अत्र अनुनासिक उकारः
प्रथमाविभक्ति बहुवचनप्रत्ययः जस् प्रत्ययः, सु औ जस्।
जस् जस् इति विभक्तिप्रत्ययः अस्ति, अतः न विभक्तौ तुस्मा इत्यनेन अन्तिमसकारस्य इत्संज्ञा न भवति, यद्यपि सकारः हलन्त्यम् अस्ति, अतः हलन्त्यम् इति सूत्रस्य प्रसक्ति अस्ति, परन्तु जस् इति विभक्तिप्रत्ययः अस्ति, अतः न विभक्तौ तुस्मा इति सूत्रेण तस्य इत्संज्ञा न भवति। जकारस्य इत्संज्ञा च वर्गीय अस्ति, अतः चुटु इति इत्यनेन जकारस्य इत्संज्ञा भवति, अस् इति आतिदेशिकरूपं निष्पद्यते।
उत्तमं। जस् इति प्रत्यये जकारः अस्ति, प्रत्ययस्य आदौ जकारः अस्ति, जकारः च वर्गीयव्यञ्जनम् अस्ति इति कृत्वा जकारस्य इत्संज्ञा चुटु सूत्रेण भवति। तथा एव णिच् प्रत्ययस्य प्रसङ्गे चुटु सूत्रस्य प्रसक्तिः अस्ति वा?
अस्ति। णिच् इति प्रत्ययस्य आदौ वर्ण नकारः अस्ति, तदनन्तरम् ईकारः अस्ति, अतः चुटु इति सूत्रस्य प्रसक्ति अस्ति इति कारणतः णकारस्य इत्संज्ञा भवति। अपि च अन्तिम चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, अतः णिच् इत्यतः इ इति रूपं निष्पद्यते।
उत्तमम्। णुवल् इति एकः प्रत्ययः अस्ति, णुवल् प्रत्ययान्तरूपमेव पाठकः, पठ् धातुतः णुवल् प्रत्ययस्य योजनेन पाठकः इति रूपं सिद्ध्यति। णुवल् तत्र वदतु।
अन्ति आदौ णकारः अस्ति, चुटु च वर्गीयवर्ण अस्ति, चुटु इति सूत्रस्य प्रसक्तिः अस्ति इति कारणतः णकारस्य इत्संज्ञा भवति। लकार अन्तिमवर्णः अस्ति, हल् वर्णः अस्ति, अतः हलन्त्यम् इत्यनेन तस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन लकारस्य लोपः जातः, अतः वु इति निष्पद्यते।
उत्तमम्। वु इति कथनेन स्वरवर्णः नास्ति, वकारः अपि च उकारः,
उकारः अस्ति,
तत्र वर्णद्वयम् अवशिष्यते। अपि च सुप्रत्ययेषु एकः प्रत्ययः अस्ति, तृतीयाविभक्ति एकवचनप्रत्ययः, तत्र ताभ्यां भिस् ता इति तृतीयाविभक्ति एकवचनप्रत्ययः, वदतु ता इत्यत्र।
ता इत्यत्र टकारः अपि अकारः अस्ति, ट आदौ वर्णः अस्ति, ट वर्गीयवर्णः अस्ति, अतः चुटु इति सूत्रस्य प्रसक्ति अस्ति, चुटु इत्यनेन आदौ स्थितटकारस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोप जातः, अतः आ इति अवशिष्यते।
उत्तमम्। इत्युक्ते एतेषु प्रत्ययेषु आदौ चवर्गीय ठवर्गीयव्यञ्जनेषु अन्यतमवर्णः प्रत्ययस्य आदौ अस्ति इति कारणतः तस्य इत् संज्ञा चुटु सूत्रेण भवति। साधु भगिनी, अन्तिमं सूत्रमस्ति लशक्व तद्धिते। चन्द्रमौली महोदय, भवान् एव पठतु।
लशक्व तद्धिते, प्रत्ययस्य आदौ लकारः षकारः कवर्गीयः च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्धितप्रत्यये न। लश्च षश्च कुश्च तेषां समाहारद्वन्द्वः लशकु, न तद्धितम् अतद्धितं नन्तत्पुरुषसमासः, तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं भवति। उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते इति सूत्रः अस्ति। तत्र यदि प्रत्ययस्य आदौ लकारः वा अथवा षकारः अथवा कवर्गः कवर्गीय कोऽपि वर्णः अस्ति चेत् तत्र इत् भवति, किन्तु केवलम् अतद्धिते एव। तद्धितप्रत्ययमध्ये यदि लकार षकार कवर्गीयव्यञ्जनवर्णाः सन्ति चेत् तत् इत् न भवति इति। केवलं यत्र तद्धितप्रत्ययः नास्ति तत्र प्रत्ययस्य मध्ये यदा आदौ क्षम्यता प्रत्ययस्य आदौ हा प्रत्ययस्य आदौ एव लकार षकार अथवा कवर्गीयव्यञ्जनानि सन्ति चेत् तत् इत् भवति इति सूत्रस्य सूत्रं प्रतिपादयति।
उत्तम, एकानिचन उदाहरणानि एकवारम् अवलोकयाम। पठनम् इत्यस्मिन् पदे ल्युट् इति प्रत्ययः अस्ति। ल्युट् प्रसङ्गे लशक्वतद्धितसूत्रस्य कार्यमस्ति वा?
अस्ति महोदय, लशक्वतद्धिते किमर्थम् इत्युक्ते ल्युट् इति तद्धितप्रत्ययः नास्ति, अतः तत्र लशक्वतद्धिते इत्यनेन लकारस्य इत्संज्ञा भूत्वा लोपः जातः। तदनन्तरं हलन्त्यम् इत्यनेन टकारस्यापि इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन सूत्रेण लोपः जातः। केवलं यु एव अवशिष्यते, युवारनाकौ इत्यनेन सूत्रेण युवोरनाकौ अन् आगच्छति, अन आगच्छति तत्र
अन आयाति, तदर्थं पठन इति रूपं सिद्ध्यति।
भगिनि, तत्र अतद्धिते इति अस्ति किल, तत् नियमः वा? सप्तम्याम् अस्ति, अतद्धिते परे इति भवति वा? तस्मिन् यदि निर्दिष्टे पूर्वस्य इति सूत्रेण सप्तमी चेत् पूर्वं कार्यम् इति भवति, किन्तु अत्र अतद्धिते इति सप्तम्याम् अस्ति,
तस्मिन् इति निर्दिष्टे पूर्वस्य इति नास्ति
इति मन्ये।
तद्धितप्रत्ययान् वर्जयित्वा तद्धितप्रत्ययं विहाय तद्धितप्रत्ययं त्यक्त्वा अन्येषु स्थलेषु एव अस्य प्रसक्तिः, इत्युक्ते अत्र विषयसप्तमी भवितुम् अर्हति इति मम चिन्तनं। तद्धितप्रत्ययान् विहाय एव अस्य प्रसक्तिः, विषयसप्तमी इति अहं चिन्तयामि। महोदय, अत्र सम्पठ्य इति पदमस्ति चेत् सम्पठ्य इत्यस्मिन् पदे ल्यप् इति प्रत्ययः अस्ति, तस्य प्रसङ्गे वदतु।
तथापि ल्यप् इति तद्धितप्रत्ययः नास्ति, अतः तत्रापि लशक्वतद्धिते इति सूत्रः आगत्य लकारस्य इत्संज्ञा भूत्वा आदौ स्थितः लकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः जातः। तदनन्तरं हलन्त्यम् इत्यनेन सूत्रेण तदापि पकारस्य इत्संज्ञा भूत्वा लोपः जातः, केवलं य एव अवशिष्यते।
श्यप् श्यन् श्न्या श्नम् इत्यादीनां प्रसङ्गे वदतु, गणविकरणप्रत्ययाः सन्ति खलु, वदतु।
शप् स्वीकरोमि चेत् तदपि एकः प्रत्ययः अस्ति, तद्धितप्रत्ययः नास्ति, अतः षकारस्य आदौ स्थितः षकारस्य लशक्वतद्धिते इत्यनेन सूत्रेण तस्य इत्संज्ञा भूत्वा लोपः जातः। तदनन्तरं हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा भूत्वा लोपः जातः, केवलम् आ एव अवशिष्यते। श्नुं तत्प्रत्ययस्यापि पुनः तद्धितप्रत्ययः नास्ति इति कारणतः तत्रापि लशक्वतद्धिते इति सूत्रस्य प्रसक्तिः अस्ति एव, अतः आदौ स्थितः षकारस्य इत्संज्ञा भूत्वा लोपः जातः। तदनन्तरं हलन्त्यम् इत्यनेन मकारस्य अपि इत्संज्ञा भूत्वा लोपजातः, नु एव अवशिष्यते।
उत्तम, षकारस्य प्रसङ्गे कानिचन उदाहरणानि दृष्टानि। कू इति लिखितमस्ति खलु, कू इत्युक्ते कवर्गीयव्यञ्जनानि इति अर्थः अस्ति। तद्धितप्रत्ययान् वर्जयित्वा अन्येषु प्रत्ययेषु प्रत्ययस्य आदौ कवर्गीयव्यञ्जनम् अस्ति चेत् तस्य इत् संज्ञा भूत्वा अपगच्छति. इत्युक्ते केचन कित् प्रत्ययाः सन्ति, कित् प्रत्ययान् जानाति वा?
कित् प्रत्ययान्
कित्
जानामि. यत्र ककारस्य इत् संज्ञा भवति तत् कित् भवति.
उदाहरणार्थं
त्वा इक्त्वा, इक्त्वा इक्त्वा प्रत्ययः अस्ति. तथा तत्रापि इक् तत् कु अस्ति, ऐ मीन् कवर्गीय प्रथमवर्णः अस्ति इति कारणतः लशक् तद्धितप्रत्ययः नास्ति इति कारणतः तत्र लशक् तद्धिते इति सूत्रस्य प्रसक्तिः अस्ति. अतः तत् ककारः इत्संज्ञा भूत्वा लोपः जातः, अतः कित् भवति.
उत्तमं. केचन प्रत्ययाः कितः सन्ति, क्त्वा प्रत्ययः, कता प्रत्ययः, कतावतु प्रत्ययः, क्तिन् प्रत्ययः, क्विप्, एतेषु प्रत्ययेषु प्रत्ययस्य आदौ ककारः इत्संज्ञकः अस्ति इति कारणतः तस्य इत्संज्ञा लशक्वतद्धिति इति सूत्रेण भवति. अपि च केचन स्त्रीप्रत्ययाः सन्ति, णीप्, णीष्, णीन्, एतेषु प्रत्ययेषु ण्यकारः, ण्यकारः इत्युक्ते कवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति, तस्यापि इत्संज्ञा लशक्वतद्धिति इति सूत्रेण भवति. अत्र अतद्धिते इति लिखितमस्ति. अतद्धिते इति अवगन्तुं कानिचन उदाहरणानि एकवारम् अवलोकयाम. ग्मीनि इति एकः प्रत्ययः अस्ति, तद्धितप्रत्ययः. ग्मीनि इति कथनेन तत्र आदौ गकारः अस्ति, तस्य गकारस्य इति संज्ञा न भवति. किमर्थं चेत् सः प्रत्ययः तद्धितप्रत्ययः. तद्धितप्रत्ययः इत्युक्ते प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तं पदं सिद्ध्यति खलु. एकम् उदाहरणं वदामि. वाग्मी इति एकं पदमस्ति. वाग्मी इत्युक्ते प्रशस्तवाक्यवक्ता, उत्तमवक्ता इत्यस्मिन् अर्थे वाग्मी. प्रातिपदिकमस्ति वाग्मिन्, प्रथमाविभक्तिरूपमस्ति वाग्मी. वाग्मी इत्यस्मिन् पदे ग्मिनि इति प्रत्ययः अस्ति, तत्र गकारस्य इति संज्ञा न भवति. किमर्थं चेत् सः प्रत्ययः तद्धितप्रत्ययः. तद्धित इति पदमस्ति खलु, तत्र तत् योगः हित इति पदविच्छेदं कुर्मः चेत् तस्मै हितम् इति वक्तव्यमस्ति. तद्धित इत्यस्मिन् पदे एकं सूत्रं कार्यं करोति. पूर्वसवर्णसन्धिः झयोहोऽन्यतरस्याम् इति सूत्रेण पूर्वसवर्णादेशः भूत्वा तत्र स्थितस्य हकारस्य स्थाने धकारादेशः भवति इति कृत्वा तद्धित इति रूपं सिद्ध्यति. अतद्धितेषु एव लशक्वतद्धिते इति सूत्रेण कार्यं भवति. एकम् अन्यत् उदाहरणमपि अहं दृष्टवती, अतः वदामि. लच् इति एकः प्रत्ययः अस्ति. लच् प्रत्ययस्य नाम, तद्धितप्रत्ययस्य नाम लच् अस्ति. चूडा इति प्रातिपदिकम् अस्ति. चूडा इति प्रातिपदिकात् लच् इति प्रत्ययस्य योजनेन चूडालः इति पदं सिद्ध्यति. चूडालः, जटालः, मञ्जुलः, मृदुलः, वातूलः, एते शब्दाः लच् प्रत्ययान्तशब्दाः. लच् प्रत्यये यः लकारः प्रत्ययस्य आदौ श्रूयते तस्य इति संज्ञा न भवति, सः लकारः यथावत् तिष्ठति. लशक्वतद्धिते सूत्रेण तस्य इति संज्ञा न भवति. किमर्थं चेत् लच् प्रत्ययः तद्धितप्रत्ययः, प्रातिपदिकात् तस्य विधानं भवति. लच् प्रत्ययान्तशब्दाः चूडालः, जटालः, मृदुलः, दन्तूलः, वातूलः इत्यादीनि पदानि दृष्टवती.
दयालुः, दयालुः,
दयालुः न, दयालुः किमर्थम् इत्युक्ते तत्र आलुच् इति प्रत्ययः अस्ति तस्मिन् पदे. एकम् अन्यत् उदाहरणमपि अहं दृष्टवती. वातशब्दात् लच् प्रत्ययस्य योजनेन वातूलः इति पदं सिद्ध्यति. अतद्धिते इति अवगन्तुम् एकम् अन्यत् पदमपि वदामि, सामान्यं पदमेव. भूरिशः, भवन्तः सर्वे जानन्ति एव, भूरिशः, बहुशः, अल्पशः, अल्पशः, बहुशः, भूरिशः इत्यादिषु पदेषु शस् इति एकः प्रत्ययः अस्ति. शस् इति तद्धितप्रत्ययः. तस्य योजनेन अल्पशः, भूरिशः, बहुशः इत्यादीनि पदानि सिद्ध्यन्ति. किन्तु सः प्रत्ययः तद्धितप्रत्ययः अस्ति इति कारणतः तत्र स्थितस्य तालव्यशकारस्य लोपः न भवति, लशक्वतद्धिते इति सूत्रं न कार्यं करोति तत्र. शस् प्रत्यये स्थितस्य तालव्यशकारस्य अपगमनं न भवति. आहत्य वयं सर्वे मिलित्वा किञ्चित् चिन्तनं कृतवन्तः. अधोभागे अभ्यासः अस्ति, तस्मिन् अभ्यासे परिचितानि उदाहरणानि एव सन्ति, नूतनविषयाः न सन्ति. अग्रिमे सप्ताहे इतोपि किञ्चित् अस्मिन् प्रसङ्गे एव चिन्तनं करिष्यामः. सम्यक् रीत्या चिन्तनं कृतवन्तः, किन्तु केचन प्रश्नाः सन्ति. प्रश्नानाम् उत्तराणां प्रसङ्गे सर्वे चिन्तयन्तु चिन्तयन्तु अपि च आगामिसप्ताहे वक्तुं प्रयत्नं कुर्वन्तु. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.